न किरिन्द्रत्वदुत्तरो न ज्यायाङ्कस्तिव्रत्रहन् न किरेवायथात्वम् सत्रा ते अनुपृष्टयो विश्वा चक्रे ववावृतः सत्रा महाङ्कसि श्रुतः विश्वे च नेतनात्वा देवास इन्द्रयुयुधः यदः नक्तमातिरः यत्रोतपाधितेभ्यश्चक्रम् कुत्सा यजुध्यते मुषाय इन्द्रसूर्यम् यत्र देवाङ्घ्रघायतो विश्वाङ्कयुध्य एक इत त्वमिन्द्रमनोऽङ्ग्रहन् यत्रोतमर्त्या जकमरिणा इन्द्रसौर्यम् प्रापश्यचेभिरेतशम् किमादुतासि व्रत्रहन्मघवन्मञ्जमत्तमः अत्राहदानुमातिरः एतद्घेदुतवीर्या अमिन्द्रजकर्थपौंस्यम् स्त्रियम् यद्दुरहणायुवम् वधेर्दुहितरम् दिवः दिवश्चिद्घादुहितरम् महान्महीयमानाम् उषासमिन्द्रसम्पिणक अपोषा अनसः सरत्सम्पिष्टादः बिभ्रषे नियत्सेम् शिष्णधद्वृषा एतदस्या अनश्यये सुसम्पृष्टम् विभाष्या ससारसेम् परावताः उत सिन्धुम् विबाल्यम् वितस्थानामधिक्षमे परिष्ठा इन्द्रमायया उत शुष्णस्य धृष्णजा प्रमृक्षो अभिवेदनम् पुरो यतस्य सम्पिणक उत दासम् कोलितरम् बृहतः पर्वतादधे अवाहन्निन्द्रशम्बरम् उत दासस्य वर्चिनः सहस्राडिशतावधीः अधिपञ्च प्रधेङ्ग्रिव उतत्यम् पुत्रमग्रुभः परावृक्तम् शतक्रतुः उक्थेष्विन्द्र आभजत उतत्या दुर्वशायदो अस्नाता राशचेपतेः इन्द्रो विद्वाङ् अपारयत उतत्या सद्य आर्या सरजोरिन्द्रपारताः अर्णा चित्ररथावधेः अनुद्वाजहिता न योऽन्धम् श्रोणम् च वृत्रहन् न तत्ते सुम्नमष्टवे शतमश्मन्मयेनाम् पुरामिन्द्रो व्यास्यत दिवो दासाय दाशुषे अस्वापयद्दभीतये सहस्रा त्रिंशतम् हथैः दासानामिन्द्रो माजजा सघे दुतासि व्रत्रहन् समान इन्द्रगोपतेः यस्ता विश्वानिचिच्युषे उत नो नय्यदिन्द्रियम् करिष्या इन्द्रपौंस्यम् अद्यानकिष्टदामिनत वामम् वामन्त आदुरे देवो ददात्पर्यमा वामम् पोषा वामम् भगो वामम् देवः करोडते